धर्मस्य दानीन भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानम् शजामयम् परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् धर्म संस्थापनार्थाय सम्भवामि पुरुषोत्तम संगम युगे
युगे
यदा यदा हि धर्मस्य ज्ञानीर् भवति भारत अभ्युत्थानम् अधर्मस्य सहात्मानम् शजामयम् परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् धर्म संस्थापनार्थाय सम्भवामि पुरुषोत्तम संगम युगे